स्थैरन्ध्र्याः तदनुचिरं स्मरातुरायाः यातो भूसुललितम् उद्धवेन सार्धम् आवासं तदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिन वाससज्जिकायाः उपगते त्वयि पूर्णमनोरथां प्रमदसंभ्रम कम्प्रपयोधरां विविधम् आननम् आदधतीं मुदा रहसितां रमयाञ्चकृषे सुखं पृष्टावरं पुनरसौ अवृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु सायुज्यमस्त्विति वदेत् बुधयेव कामं सामीप्यम् अस्तु अनिशम् इत्यपि नाब्रवीत् किं ततो भवान् देव निशासुकासुचित् मृगीदृशं तां निभृतं विनोदयन् अदात् उपश्लोक इति श्रुतं सुतं सनारदात् सात्वततन्त्रविद्बभौ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्याम् अभ्यर्चितो बहुनुतो मुदितेन तेन एनं विसृज्य विपिनागतपाण्डवेयवृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टां विघात्ताज्जामातुः परमसुहृदो भोजनृपतेः जरासन्धे रुन्धति अनवधिरुषान्धेथ मधुरां रथाद्यैः द्योर्लब्धैः कतिपयबलस्त्वं बलयुतः त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः बद्धं बलात् अथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनं निःशेष दिग्जयसमाहृत विश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवान् तदानीं भग्नः सलग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्वयेवम् अक्षौहिणीः शिवशिवास्य जघन्थ विष्णो सम्भूयसैकनवति त्रिशतं तदानीम् अष्टादशेऽस्य समरे समुपेयुषित्वं दृष्ट्वा पुरोथ यवनं यवनत्रिकोट्या त्वष्ट्राविधाप्य पुरमाशुपयोधिमध्ये तत्राथ योगबलतः स्वजनान् अनैषीः पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानः म्लेच्छेषेन अनुयातो वधसुकृत्तविहीनेन शैले न्यलैषीः सुप्तेन अङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषुतं निःस्पृहं वीक्षहृष्यन् मुक्तेस्तुल्याञ्च भक्तिं धुतसकलमलं मोक्षमप्याशुदत्वा कार्यं हिंसा विशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै तदनुमधुरां गत्वा हत्वा च मूं यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः चरमविजयं दर्पायास्मै प्रदाय पलायितः जलधिनगरीं यातो वातालयेश्वर पाहि माम्। ओं तत्सदिति श्रीमन्नारायणीये सप्तसप्ततितमं दशकं समाप्तं। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।